हस्ते वाक्यकारं अनुरुचिं भाष्यकारं पतञ्जलिं पाणिनिं श्रुतकारं च प्रणतोऽस्मि मुनित्रयम्। गतपाठे इकारान्त उकारान्त शब्दानां प्रक्रिया उक्ता। इकारान्त हरिशब्दस्य उकारान्त गुरुशब्दस्य च प्रक्रिया दर्शिता। अत्र रूपाणि लिखितानि सन्ति। प्रक्रिया समाना मया उक्तं, हरिशब्दस्य प्रक्रिया अस्माभिः दृष्टा। यथा हरिशब्दस्य प्रक्रिया रूपसिद्धिः येन क्रमेण भवति तद्वदेव गुरुशब्दस्य अपि। So, the sutras are same for ikaranta and ukaranta. Okay. Atta ghehe. Okay, there is a question. Atta ghehe. Say it. अत्तघेः इत्यस्य विवरणं पुनः एकवारं करिष्यामि। अत् इति सूत्रे अत् च घेः इति पदानि दृश्यन्ते। घेः इत्यस्य घिसंज्ञकस्य इत्यर्थः। घि इति काचित् संज्ञा, विच् ऐ एक्स्प्लेन्ड् लिटल् बिट् इन् द प्रीवियस् क्लास्। घि इस् अ टेक्निकल् टर्म् गिवन् बै पाणिनि। घेः घिसंज्ञकस्य अत् इत्यनेन ह्रस्व अकारः गृह्यते। अत् अत् च घेः, घेः नाम घिसंज्ञकस्य अत्। यदा पाणिः तकारं प्रयुङ्क्ते नीविषस्तकार, तदा ह्रस्वकारः इत्यर्थः। अतः घिसंज्ञकस्य ह्रस्वकारः भवति। उदाहरणार्थं हरि इत्यस्ति, एक्चुअलि द ओरिजिनलि द प्रत्यय वास् इ, देन् औ रिप्लेसस् दिस्, औ रिप्लेसस् इ बिफोर् ऐ हाव् रिटन् औ इति लिखितमस्ति मया। एक्चुअलि इट् वास् इ by the same sutra attakhehe. Attakhehe itatra karya dvayam asti. Ekam karyam ghisamnyakasya sthane akarah, ikarasya asmin udaharane ikara asti, tasya sthane akarah, this is one. And the second, dvitiyam karyam asti tracha ityuktam. Cha itanena purva ukta aut अपि स्वीक्रियते। सो इ विल् बि रिप्लेस्ड् वित् औ। सो बोत् आर् मेन्शन् इन् द सेम् सूत्र अट्टघेः। सो घेः विच् हेस् घिसंज्ञा, घेः स्थाने अकारः भवति, अन्त्यस्य वर्णस्य स्थाने अकारः, एण्ड् प्रत्ययस्य स्थाने, so the pratyaya, that is e, e will be replaced with au. Therefore it becomes ha. See, hara hara become hari becomes hara, hara plus au. Idanim vriddhi santhihi, so harau. Harau iti rupam. एवमेव गुरुशब्देऽपि same with ukaraanta shabda. If you take ukaraanta shabda, then guru plus e is original supratyaya. Guru plus e, ukarasya sthane akaraha, therefore it becomes gura. And e itasya sthane au iti pratyaya. So now vritti sandhi, gura plus au gurau. Astu dam atta ghehe ityasya artha atu ta ghehe visamnakasya atu by chakara. As I previously said, au is also taken. Ataha au adeshah api anekutrane bhavati. Okay. So kopi prashna asti va ikaranta ukaranta shabdanam vishe anyatha agre gachhamah. Rupani atra dattani santi. Yatha ikarante prakriya tadvadeva. Atra api harihi. Atra since it was ikarante, it became hari. Guru shabda ukaranta, therefore it gets dirgha and guru. Dirgha ikadesha. Hari hariyoho. Ikara asit. Ataha ikarasya sthane yakara in end santi. Therefore hariyoho. Guruvoho. Atha ukara hasti, ukarasya sthane vakara bhavati in end santi, ataha guru voho. And that is the difference. Otherwise, the rule is same. Hariyoho itatrapi end santi reva, guruvoho itatrapi end santi reva. But, atha ikara hiti karana yakara bhavati, guruvoho itatra ukara hiti karana vakara bhavati. Astu? Okay. Agrega chamaha. Rikaranta shabdaha. Rikarantaha. Rikaranta shabdaha. Tatra shabdadvayam sikurmaha. One is, let us take two pratipadikas. One is kartra and pitra. Both are karantas, but the forms are not same. So there are bheda hasti, kartra punaha pitra. Anayoho prakriyam pashyama. Atra kartra shabdaha, there are two pratyas mentioned by Panini. One is trit. Anyaha pratyaha trin. Iti pratyaya dvayam paninina ullikitam asti. Atra kopi prashna asti. Sambodhana bahuvachana in guru shabda kimartham. Oh, is it so? Okay. Maybe a typing error. Just a minute. Haraya, oh, sorry. Okay. It is not guru in Sambodhana. Atra, okay. Guravaha itteva. So he guru, he guru, he guravaha. Samanam. Like he hare, he hare, he hari, he haraya. So, okay. Idanim atra paninina pratyaya dvayam uktam. Trin iti ekaha pratyaya, trit iti anyaha pratyaya. Idam dvayam api krit pratyayeshu antarbhavati. Trin, trit. Ataha, eto pratyayau धातोः विधीयन्ते. कृ इति कश्चन धातुः, करोति इति रूपं जानीमः, कृ इति धातुः. कृ धातोः तृन् अथवा तृच् प्रत्ययः युज्यते चेत् तदा तृन् अथवा तृच् उभयत्रापि तृ इति अवशिष्यते. ओन्लि तृ रिमैन्स्, चकारस्य लोपः इत्थं नास्ति, नकारस्यापि इत्थं नास्ति, लोपः केवलं तृ इति अवशिष्यते. अर्थः समानः नास्ति, तृच् प्रत्ययस्य अर्थः अन्यः, तृन् प्रत्ययस्य अर्थः अन्यः, किन्तु रूपं समानम्. अत्र कृ इति धातुः, इफ् वी आड् तृन् आर् तृच् प्रत्यय, देन् वि गेट् द प्रातिपदिक, इट् इस् कर्तृ, कर्तृ इति रूपं लभ्यते. एवं सर्वेषामपि धातूनाम् एतौ प्रत्ययौ भवतः, उदा पठितृ अथवा गमधातु, गम इति धातु स्वीक्रियते चेत् गन्तृ, गम् प्लस् तृ किं भवति, गन्तृ. एवं सर्वेषामपि धातूनां एतौ प्रत्ययौ योजयितुं शक्यते. किन्तु पितृशब्दः यः अस्ति सः एतादृशः न. पितृशब्दे तृन् अथवा तृच् प्रत्ययः नास्ति. नाम पाणिनेः क्रमेण अयं शब्दः निष्पादितः नास्ति. मीन्स् द पितृशब्द इस् नाट् डिराइव्ड् फ्रम् पाणिनीस् रूल्स्. देर् आर् सम् अदर् रूल्स् काल्ड् उणादिसूत्रास्, दे आर् नाट् रिटर्न् बै पाणिनि. उणादिसूत्रास् आर् देर् अगेन् पञ्च फैव् अध्यायास्, दे आर् रिटर्न् इन् फैव् चाप्टर्स्. In Siddhanta Kaumudi book, they are given in Kadananta section, these Unadi Sutras. So, this Pitra Shabda is derived from Unadi rules, they are not derived by these Paninis rules. Ataha, Pitra Shabde, Trin Pratyaha, Trich Pratyaha va Nasti. There are some more such words, I have listed some famous words here. Bhratra shabdaha api trin pratyayantaha va trich pratyayanto va na. Again, this is derived from Unadi rules. Bhratra evam nrishabdaha nru ityasya manavaha manushyaha ityarthaha nru. Rukaranta shabdaha saha api chasya api saha api trin pratyayanto na. जामातृ शब्दः, मातृशब्दः प्रसिद्धः, पितृमातृ शब्दद्वयमपि पाणिनेः प्रत्ययेन निष्पादितो नास्ति. अतः एतादृशशब्दानां, पितृ भ्रातृ नृ जामातृ मातृ इत्यादिशब्दानां प्रक्रियायां कश्चन विशेषः वर्तते. कर्तृशब्दस्य पितृशब्दस्य च प्रक्रिया समाना नास्ति, क्वचित् रूपभेदः अस्ति. तत्र कारणं किं, किमर्थं तत्र समानं नास्ति इति चेत्, पितृ इत्यादिशब्दाः तृन् तृच् प्रत्ययान्ताः न, कर्त गन्तृ इत्यादिशब्दाः तृन् तृच् प्रत्ययान्ताः. अतः तृन् तृच् प्रत्ययान्तानां प्रक्रिया भिन्ना, तृन् तृच् प्रत्ययरहितानां प्रक्रिया भिन्ना. कश्चन सर्वत्र विशेषः नास्ति, केवलं तत्र सर्वनामस्थानप्रत्यये परे विशेषः वर्तते. केचन प्रश्नाः सन्ति इति भाति. हन्तृ अपि, यस् हन्तृ इस् आल्सो एक्साम्पल्, वी केन् एड् दिस् तृन् अण्ड् तृच् टु एनी धातु. इस् इट् नाट् बिकास् वन् इस् क्रियापदरूपम् एण्ड् अदर् इस् फार्म्ड् फ्रम् अ नौन् आर् प्रातिपदिकम्, विच् इस् क्रियापदरूपम् एण्ड् द अदर् इस् फार्म्ड् फ्रम् अ नौन् आर् प्रातिपदिकम्. ऐ थिङ्क् कल्याण्जी इस् एक्स्प्लेनिङ्ग् अबौट् दिस् कर्तृ एण्ड् पितृ. अत्र कारणं निस्तृन्द्रिच् प्रत्ययः एव, तृन्तृच् प्रत्ययान्तः चेत् तत्र ಪ್ರಕ್ರಿಯಾನ್ಯ, ಸುಂದೃತ್ ಪ್ರತ್ಯಯ ಅಂತಹ ನ ಚೇತ್ ಪ್ರಕ್ರಿಯಾನ್ಯ. ಪಿತೃ ಇತ್ಯಾದಿ ಶಬ್ದ ಸುಂದೃತ್ ಪ್ರತ್ಯಯ ಅಂತಹ ನ. ತತ್ರಾಪಿ ಇಫ್ ಯು ಟೇಕ್ ದಿಸ್ ಉನಾದಿ ಸೂತ್ರ ದೆನ್ ಯು ವಿಲ್ ಫೈಂಡ್ ಧಾತು ಫಾರ್ ಪಿತೃಶಬ್ದ ಆಲ್ಸೋ. ದೇ ಆಲ್ಸೋ ಡಿರೈವ್ ಫ್ರಮ್ ಧಾತು ಪಿತೃ ಮಾತೃ ಎಕ್ಸೆಟ್ರಾ. ಸೊ ದೇರ್ ಇಸ್ ಸಮ್ ಪ್ರತ್ಯಯ ಧಾತು ಪ್ಲಸ್ ಪ್ರತ್ಯಯ ದೆನ್ ಯು ಗೆಟ್ ಪಿತೃಶಬ್ದ. ವರ್ಡ್ಸ್ ದೇ ಆರ್ ನಾಟ್ ಡಿರೈವ್ ಫ್ರಮ್ ಪಾಣಿನೀಸ್ ರೂಲ್ಸ್. ದಟ್ ಇಸ್ ದ ಡಿಫರೆನ್ಸ್. ಸೊ ಪಾಣಿನಿನ ಉಕ್ತ ತಂತ್ರ ಪ್ರತ್ಯಯನ ನಿಷ್ಪಾದಿತ ಶಬ್ದ ನ ಸಂತೀಯತೆ. ಅತಃ ತತ್ರ ಪ್ರಕ್ರಿಯ ವಿಶೇಷ ವರ್ತದೆ. ಪರ್ವತನಾಥಿ
ನಮಸ್ತೆ. ಐ ಕುಡ್ ಹಿಯರ್ ಪ್ರಾಪರ್ಲಿ. ಇಸ್ ಇಟ್ ಗುಣಾದಿ ಸೂತ್ರ
ಅತ್ರ ದಿಸ್ ಇಸ್ ಗುಣಾದಿ.
ಗುಣಾದಿ
ಉಣ್ ಇಸ್ ದ ಫಸ್ಟ್ ಪ್ರತ್ಯಯ ಇನ್ ದಟ್ ದೆಫೋರ್ ಉಣಾದಿ ಉಣ್ ಎಕ್ಸೆಟ್ರಾ.
ಅಂಡ್ ಉಣಾದಿ ಸೂತ್ರ ದಿಸ್ ಈಸ್ ಫ್ರಮ್ ಸಿದ್ಧಾಂತ ಕೌಮುದಿ. ಇಸ್ ಇಟ್ ಲೈಕ್ ದಟ್?
ಇಟ್ ಮೆನ್ಷನ್ ದೇ ಆರ್ ಲಿಸ್ಟೆಡ್ ಇನ್ ಸಿದ್ಧಾಂತ ಕೌಮುದಿ ಕೃದಂತ ಪ್ರಕರಣ, ಬಟ್ ದೇ ಆರ್ ನಾಟ್ ರಿಟರ್ನ್ ಬೈ ಭಟ್ಟೋಯ್ ದೀಕ್ಷಿತ. ಸಿದ್ಧಾಂತ ಕೌಮುದಿ ರಿಟರ್ನ್ ಬೈ ಭಟ್ಟೋಯ್ ದೀಕ್ಷಿತ ನೋ, ಬಟ್ ದೀಸ್ ಸೂತ್ರಸ್ ಆರ್ ನಾಟ್ ರಿಟರ್ನ್ ಬೈ ಭಟ್ಟೋಯ್ ದೀಕ್ಷಿತ, ಬಟ್ ದೇ ಆರ್ ಲಿಸ್ಟೆಡ್, ದೀಸ್ ಸೂತ್ರಸ್ ಆರ್ ಗಿವನ್ ಇನ್ ಸಿದ್ಧಾಂತ ಕೌಮುದಿ ಕೃದಂತ ಸೆಕ್ಷನ್.
And who is the main, who originated these sutras? I mean, it is thanks to whom? Unadi sutras are...
Yeah, I don't remember the name now. Amnas Parami Dhani. I will find out the name. Mm.
Okay. Dhaniwada.
Okay, yeah. Yes, sir. ಓಕೆ, ಅಸ್ತು. ತರ್ಹಿ ಅತಃ ಋಕಾರಾಂತ ಶಬ್ದೇಷು ಏವ ಕರ್ತೃ ಇತ್ಯಾದಿ ಶಬ್ದಾನಾಂ ಪ್ರಕ್ರಿಯಾಯಾಂ ಕಶ್ಚನ ವಿಶೇಷಃ ಅಸ್ತಿ ಯತ್ ಪಿತೃ ಇತ್ಯಾದಿ ಶಬ್ದೇಷು ನಾಸ್ತಿ. ಅತಃ ದ್ವಯೋಃ ಅಪಿ ಪ್ರಕ್ರಿಯಾಂ ಪಶ್ಯಾಮಃ. ಪ್ರಥಮಂ ತತ್ರ ಮಿಲಿತ್ವಾ ಎವ ಪ್ರಕ್ರಿಯಾಂ ದ್ರಷ್ಟುಂ ಶಕ್ನುಮಃ. ಪಿತೃಶಬ್ದಸ್ಯ ಪ್ರಥಮಂ ಪಶ್ಯಾಮಃ. ಪಿತೃ ಸು ಪಿತೃಶಬ್ದಃ ಸು ಇತಿ ಪ್ರತ್ಯಯಃ. ಇದಾನೀಂ ಅತ್ರ ಮಯಾ ಲಿಖಿತಂ ಅನ್ ಇತ್ಯಾದೇಶಃ ಭವತಿ ಇತಿ. ಆಕ್ಚುಲಿ ಅಕಾರ್ಡಿಂಗ್ ಟು ಸೂತ್ರ ಇಟ್ ಈಸ್ ಅನಂಗ್. ಅನಂಗ್ ಇತಿ ಆದೇಶ, ಬಟ್ ಇನ್ ದಿಸ್ ಓನ್ಲಿ ಅನ್ ರಿಮೈನ್ಸ್. ಅನ್ ಇತ್ಯೇ ಅವಶಿಷ್ಯತೆ. ಸೊ ಅನ್ ರಿಪ್ಲೇಸಸ್ ದ ಲಾಸ್ಟ್ ಲೆಟರ್, ಇಟ್ ಈಸ್ ಋಕಾರ. ಋಕಾರಸ್ಯ ಸ್ಥಾನೇ ಭವತಿ. ಅತಃ ಪಿತ್ ಅನ್ ಪಿತನ್ ಸೊ ಅನ್ ರಿಪ್ಲೇಸಸ್ ಋಕಾರ. ಋಕಾರಸ್ಯ ಸ್ಥಾನೆ ಅನ್ ಇತ್ಯ ಆದೇಶ. ಅತಃ ಪಿತ್ ಅನ್ ಪಿತನ್ ಪಿತನ್ ಸ್. ತತಃ ಪರಂ ಅತ್ರ ಉಪಥಾಯಾಹ ಪಿತನ್ ನಿತ್ಯದ ಉಪಥಾ. ಉಪಥಾ ನಾಮ ಅಂತ್ಯಾತ್ ಪೂರ್ವಃ ವರ್ಣಃ. ಅಂತ್ಯಾತ್ ಪೂರ್ವಃ ವರ್ಣಃ ಅಕಾರಃ ಅಸ್ತಿ. ಅಂತ್ಯಃ ವರ್ಣಃ ನಕಾರಃ. ಅಂತ್ಯಾತ್ ಪೂರ್ವಃ ವರ್ಣಃ ಅಕಾರಃ. ತಸ್ಯ ದೀರ್ಘಃ ಭವತಿ. ವಿ ಸ್ಟಡೀಡ್ ದಿಸ್ ಇನ್ ಹಳಂತಸ್ ಶಬ್ದಸ್ ದ ರೂಲ್ ಬಿಕಮ್ಸ್ ಪಿತಾನ್ ಅತಃ ಅತ್ರ ಪಿತಾನ್ ಇತಿ ರೂಪಂ. ತತಃ ಪರಂ ಏಕಂ ನಿಮಿಷಂ ಅಹಂ Just a minute. There are some. Atra, yeah. So this study this sutra, Sarvanamasthane Chasam Buddho. Sarvanamasthane Chasam Buddho. So write the number. Okay. 4. इतनेन उपथा दीर्घः उपथायां ह्रस्वकारस्य अस्य दीर्घः सो पितान् स देन् सकार गेट्स् लोप दट् आल्सो वी स्टडीड् हल् ङ्याभ्यो इति सूत्रम् हल् ङ्याभ्यो इति हल् ङ्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् वेरि लाङ्ग् सूत्र 6168 इत्यनेन सकारस्य लोपः देन् नकारस्य लोपः न लोपः प्रातिपदिकान्तस्य दिस् आल्सो वी स्टडीड् न लोपः प्रातिपदिकान्तस्य इत्यनेन नकारस्य लोपः अतः पिता इति अवशिष्यते अवशिष्टं रूपं पिता इति सर्वेषां वर्णानां लोपः भवति सो पिता इति किं प्रथमं पितृसु देन् अनङ् आदेश ऋकारस्य स्थाने अनङ् अनङ् इत्यत्र ओन्लि अन् अवशिष्यते देफोर् पितन् स देन् उपथादीर्घ सर्वनामस्थाने बै दिस् रूल् उपधादीर्घः देन् सकारस्य लोपः हल्ङ्याभ्यो इत्यनेन नकारस्य लोपः न लोपः प्रातिपदिकान्तस्य इति सूत्रेण पिता इति अवशिष्यते एवमेव कर्तृशब्दे अपि कर्तृ सु अत्रापि अन् इति आदेशः सो कर्तन् कर्त अन् कर्तन् कर्तन् सु उपधा दीर्घः कर्तान् सकारस्य लोपः नकारस्य लोपः कर्ता अस्तु तो प्रक्रिया एवमेव एक्चुलि दो इन् कर्ता पुनः पिता उभयत्रापि उपधा दीर्घः अस्त्येव बट् द रूल् इस् नाट् बै द सेम् रूल् बिकास् सर्वनामस्थाने इन् कर्तृशब्द दिस् रूल् इस् अप्लिकेबल् विच् ऐ हेव् रिटन् हियर् अप् त्रन् तृ स्वस्त्र नप्तृ सो वेर् एवर् दे त्रन् आर् तृत् यु केन् सी देट् इन् दिस् सूद्र अप् त्रन् तृत् सूद्र यूसस् त्रन् एण्ड् तृत् दीस् टु वर्ड्स् सो वेर् एवर् देर् इस् इन् द वर्ड् इफ् दे इस् तृत् प्रत्यय तृत् प्रत्ययः अथवा तृन् प्रत्ययः यदि अस्ति तर्हि सर्वनामस्थानप्रत्यये परे दीर्घः सर्वनामस्थान प्रत्यय मीन्स् द फस्ट् फैव् प्रत्ययस् दे आर् काल्ड् सर्वनामस्थान प्रत्ययस् सर्वनामस्थान प्रत्यये परे तृन्तृच् प्रत्ययान्तस्य दीर्घः भवति पितृ भ्रातृ इत्यादि शब्दाः तृन्तृच् प्रत्ययान्ताः न अतः देर् वि केन् अप्लै सर्वनामस्थाने चासम्बुद्धौ सर्वनामस्थाने चासम्बुद्धौ इत्यनेन दीर्घः पितृशब्द पितान् उपधा दीर्घ बै दिस् रूल् बट् इन् कर्तान् हियर् आल्सो वि अप्लैड् उपधा दीर्घ बट् दिस् उपधा दीर्घ इस् बै अप्तृन् तृच् बिकास् सर्वनामस्थाने चासम्बुद्धौ इस् 648 एण्ड् अप्तृन् तृच् इस् 6411 सो अष्टाध्याय्यां परत्र अस्ति परत्र विद्यमानं सूत्रं प्रथमं प्रवर्तते फस्ट् वी हाव् टु अप्लै द परसूत्र बिफोर् वी हाव् टु अप्लै अप्तृन् तृच् इन्स्टेड् आफ् सर्वनामस्थाने इन् कर्तृशब्द Here the sutra is different for upatha dirgha, and in Pitra Shabda the rule for upatha dirgha is different. But the prakriya, the rupa is same. Can you please pronounce the 7194 sutra? 7194. Which one is that? T2. What is the Arambha? 7194 Atrastiva? Arambha Kahasti 7194. First one. Okay. Rudushanas Purudamsone Hasancha. See, Rut, Ushanas, you can split like this, then it will be easy. Rut, then Ushanas Purudams Anehas. Ete Shabda Sandhi. Rut means Rikaranta. In the Ushanas, etc., there are some words. Ushanas Purudams Anehas. Rudushanas Purudamsone Hasam. Cha. It is Udra. Asto. Okay. Is it clear? Prathama Vibhakti Ekavachana. Supratya. Kartra Shabdasya. Praha Pitra Shabdasya. Prathama Vibhakti Ekavachana Asmati Kratam. Okay. Now, Prathama Vibhakti Divachana. Dvayamapi Karomi. Prathamam, let us take Pitra Shabda. Pitra. Au. Atra Pitra Shabdasya Kim Bhavati Sarvanama Sthana Pratyaye Pare. Then E Pratyaya. E Pratyaya Saptame Bhakti Ekavachana Pratyaya. It is E. Pratyaye Pare Gunaha Ruto Ni Sarvanama Sthanayo. It is Sutra. Mritaha. You can see Ritaha. Means Rikarantasya. Ni Sarvanama Sthanayo. Ni is Saptame Bhakti Pratyaya. Sarvanama Sthana, the first five Pratyaya. Ni Sarvanama Sthanayo. This is Saptame Vibhakti Divachana. Ni Sarvanama Sthanayo. So, Ni Sarvanama Sthanayo. Parayo. Kim Bhavati. Ritaha. Gunaha Bhavati. Ataha Rikarasya Gunaha Chet. Peter. So guna means the guna letter replaces rakara. There are three guna letters. A, A, O. Trayaha guna varanaha santi. Rakarasya sthane kaha varanaha bhavati iti chet akaraha bhavati. And akara never replaces rikara alone, it replaces with repha. There are some sutras for that. Ataha rikara sasthane ar itteva adesha. Therefore, pitar iti bhavati. Pitar au. Pitar au pitarau. Iti prathama vibhaktehe divachanam. Pitarau. Okay. Now Kartra Shabda. Kartra Shabde Kim Bhavati Punaha Samanam Kartra Au. Then Gunaha. So Kartar. Kartar Au. Idanim Atramaya Uktam Aptrintit Iti Sutram Sarvanamasthane Pare Upathayaha Dirghaha. But this rule Aptrintit Sutram trin trich pratyayantanam vishaye eva. You can see the trin and trich in this sutra. So trin trich pratyayantanam vishaye eva idam sutram pravartate. Ataha upatha dirghaha sarvanamasthana pratyayapare upatha dirghaha. Trin trich pratyayantasya upatha dirghaha bhavati. Pitrishabdaha trin trich pratyayantahana ataha upatha dirghaha nasti. Kintu kartrushabdaha trin trich trinathva trich pratyayantaha ataha upatha dirghaha bhavati. So upatha means kart. Okay, oh. This kartar, kartar au upathayam akara has there is akara in upatha for it gets dirgha. So kartar au kartarau. Okay. So, kartrishabdasya kartarau, but pitrishabdasya pitarau. Atra upathadirgha asti, pitrishabde upathadirgha nasti. Ayam eva bhedaha. Ayam eva bhratrishabde api. Bhratrishabda divatana bhratarau. Bhratarau iti na bhavati. Kimarthan na bhavati? Tan pratyayantaha athava trich pratyayantaha ched eva upathadirgha. Bhratashabdaha tadrishahana. Nrishabdaschet narau. Iti rupam. Jamadrishabdaha chet jamatarau. And matrishabdaha matarau. Iti rupam. Astu. Agre aspratyaha. So samanam. As we did in Divatana, same. The prakriya is same. So just pita, pitru plus us. Then guna by anena. Ataha pitar. Pitar us. Samhita, so we have to join this, then pitaraha. Kintu kartrushabde kim bhavati sarvanamasthana pratyepare gunaha. Sorry, sarvanamasthana pratyepare upatha dirghaha. So the dirgha rule is applicable to kartrushabda. Ataha kartru plus us, then guna kartar us. Kartar as upatha dirghaha sarvanamasthana pratyaya pare upatha dirghaha. So au etal paryantam upatha dirghaha asti. So kartar as kartarah dirupam. Okay, ataha pitrishabdasya pitarah kartrishabdasya kartarah. Atra upatha dirgha asti, pitaraha upatha dirgha nasti, iti bhedaha. Six, four, 11 madhye upathaya dirgha kutra agacchati. Atra anuvrittihi anu asti. Sutram api bahu dirgham asti, it's a very long sutra. Aptrantra swastra napra neshtra toshtra kshatra hotra potra pshastra unam, iti sutram asti. Upatha dirgha iti nasti vasutre. See, aham vrutkim pathami. See. Abadinam upathayaha dirghaha. Upathayaha dirghaha iti padam. No pathayaha iti sutrat. Upathayaha iti padam anuvrittam asti. It is taken from another sutra. But the sutra says upathayaha dirghaha only. Asambuddho sarvanamasthane pare. That is the meaning of the sutra. What is 617? 617 मध्ये दीर्घाय अस्ति इति वा अप्तन्स तस्य सूत्रे दीर्घाय इति नास्ति उपधा द वर्ड उपधा एंड दीर्घ दे आर नॉट इन अप्तन्त्र बट दे आर टेकन फ्रॉम अदर सूत्र अनुवृत्ति इति गच्छते सो अनुवर्तनम् भवति ओके पर्वतना सन्ति
पुनः नमस्ते गोप्ता गोप्ता गोत्र पदम अस्ति वा तत्र किं तत्र उपधा सहितं आगच्छति वा रूपाणि
सत्यं यतः भोक्ता इति भुज धातोः रूपं भुज इति पालन अभ्यवहारयोः इति धातुरस्ति पालनं रक्षणम् इत्यर्थे पुनः अभ्यवहारः नाम खादति इति खादनं तस्मिन्नर्थे अत्र तृच् प्रत्ययः चेत् भोक्तृ इति रूपं भोक्तृ अतः उपधा दीर्घः अस्ति भोक्ता भोक्तारो भोक्तारः
मया पृष्टं गोप्ता गकारं गोप्ता
गोप्ता अपि गुप् इति धातुरस्ति गुप् इति धातुरस्ति गुप्
तत्रापि तृच् एव
अतः दीर्घः भवति सत्यं गोप्ता गोप्तारो गुपू रक्षणे इति धातुः रक्षणार्थे अस्ति धातुः
Is it hiding? Goop is hiding or rakshanam? Oh, through hiding I do protection.
Yeah, satyam. So actually the dhatvartha is gupu rakshane, iti dhatupathe. Rakshanam. So rakshana is hiding can also be to protect your hiding.
Oh, secondary meaning is hiding.
Yes. So, yeah.
Then you want
to. Saksha dhatvarthastu rakshane iti.
रक्षणे धन्यवादः
अस्तु ओके अस्तु सो पिता पितरौ पितरः अत्र पिता पितरौ पितरः बट् कर्ता चेत् कर्ता कर्तारौ कर्तारः देन् अगेन् पितृ अम् पितरम् समानं सो इन्स्टेड् आफ् अस् You can take am pratyaya. The prakriya is same. Pitru am. So then guna pitar am. Pitaram. But in kartra shabda, upatha dirgha is applicable. Ataha kartaram. Then again dutiya bhakti divachana pratyaya au. सो प्रथमाभक्ति दिवस एक द्विवचन प्रत्ययः द्वितीयाभक्ति द्विवचन प्रत्ययः उभयत्रापि प्रक्रिया समाना बिकॉज बोथ आर सर्वनामस्थान प्रत्ययस ओनली अतः अत्र पितरौ इन पितृशब्द कर्तृशब्दस्य द्वितीयाभक्ति द्विवचनं कर्तारौ ओके सो द सर्वनामस्थान प्रक्रिया समाप्ता दिस फाइव प्रत्ययस सर्वनामस्थान प्रत्ययस So when sarvanamasthana pratyaya follows, yada sarvanamasthana pratyaya pare asti tada pitrushabdasya kartrushabdasya cha rupam bhidyate samanam na bhavati. So pita pitarau pitaraha pitaram pitarau iti pitrushabdasya rupani kartrushabdasya cha karta kartarau kartaraha kartaram kartarau iti upadhadirgha asti. Okay, evameva संबोधने अपि संबोधन किं भवति पितृ पितृ इत्यस्य संबोधनं चेत् हे पितृ स गुणः भवति दिस् रूल् इस् अप्लिकेबल् अतः सम्बोधने भक्ति रैट् हे सो देट् विल् नो इस् नाट् प्रथमा विभक्ति सम्बोधन प्रत्यय सेम् बट् सम्बोधन प्रथमा pitar gunaha bhavati ataha pitar su and this upatha dirgha is not applicable here. That is asambuddho, not in sambodhana. Asambuddho sarvanamasthane sambodhana ekavachana. Sambodhana ekavachane upatha dirgha nasti. Ataha upatha dirgha na bhavati sakarasya lopaha rephagas visarga no he pitaha pitaha iti rupam. This sambodhana ekavachana itrasu, then guna pitarsu sakarasya lopaha rephasya visargaha pitaha kartra shabde eti evameva kartru kartru plus gunaha kartar su upatha dirgha nasti in sambuddhi means sambodhana ekavachana. Upatha dirgha rule is not applicable. Even this aptrindritti is also not applicable. Ataha upatha dirgha nasti kevalam repasya visargaha he kartaha. Okay, iti sambodhana ekavachane he pitaha he kartaha. In divachana and bahuvachana it is same as prathama bhakti. If you take pitra shabda, then sambodhana divachanam he pitarau. Sambodhana bahuvachana pitaraha. Kartra shabdasya sambodhana divachanam kartarau, sambodhana bahuvachanam kartaraha. Tatra visheshaha nasti, ekavachane visheshaha asti. Ekavachane pitaha iti pitra shabdasya kartaha iti kartra shabdasya ubhayatranapi gunaha bhavati. Astu raha tu visarga sutram kim kharavasana yoho visarjaniyaha iti sutram. We studied this in visarga sandhi. Karava sankha mahaprana kharava sana yoho visarjaniyaha. Okay, itanena visarga. Sutra Sankhya Evanta Prathama Sarvanama Sthana Pratyasya Prakriya Samapta. Agre Prathama Ditya Bhakti Bahuvachanam. Ditya Bhakti Bahuvachanam. Karavasana Yutya Sutra Sankhya. Karavasana yoho is 8, 3, 15. Karavasana yoho visarjaniya. Visargasya sthane, repasya sthane visarga. Run. So this is not sarvanama sthana pratyaya, dvitiya bhakti bhavachana. The prakriya is pitru. Originally the pratyaya is as. Then as we did in Rama Shabda, Hari Shabda and Guru Shabda, it gets the dirgha, purva savarna dirgha. Replaces rikara and akara. The purva varna is rikara. The dirgha of rikara replaces both. So it becomes pitrus dirgha of rukara, replaces both the letters, therefore pitrus. Then sakara will be replaced with nakara, ataha pitrun iti rupam. Sakara shasthane nakara. We studied all these rules previously. Prathama yoho pura savaranaha and tasma chaso naspumsi. So the rules are given in the previous slides. So you can check there. अतः अत्र विशेषः कोऽपि नास्ति. अस्तु पितृन् देन् सेम् वित् कर्तृन् अग्रे विशेषः नास्ति. फ्रम् द्वितीयाविभक्ति बहुवचन आन्वर्ड्स् कर्तृशब्दस्य पितृशब्दस्य च प्रक्रिया समाना. केवलं सर्वनामस्थानप्रत्यये परे एव विशेषः अस्ति. अग्रे पितृ प्लस् आ पितृ आ ऋकारात् आकार वर्तते अतः यण् सन्धिः यण् सन्धि ऋकारस्य स्थाने रेफः भवति अतः पितृ ऋकार नो रेफ यण् सन्धि पितर् पितृ अ पित्र सो पित्र इक्वल् टु पित्र. एवमेव कर्तृशब्दे अपि कर्त्र देन् पितृ प्लस् भ्यां किमपि सूत्रं न प्रवर्तते अत्र पितृ भ्यां विशेषः नास्ति जस्ट् पितृभ्याम् पितृभ्याम् इत्येव रूपम् अत्र विशेषः कोऽपि नास्ति. अग्रे पितृ प्लस् भिस् पितृभिः विशेषः नास्ति केवलं सकारस्य स्थाने रेफः विसर्गः च भवतः सो पित्रा पितृभ्यां पितृभिः देन् पितृ प्लस् ए सो अगेन् एन् सन्धि इस् अप्लिकेबल् पितृ ए पित्रे पितृ ए यण्सन्धि यण्सन्धि नाम ऋकारस्य स्थाने रेफः बिफोर् इट् इस् पितर् पि नोट् पितर् पितृ पितृ ए पित्रे ओके प्रश्नः वर्तते वा प्रवचनाथञ्जि ओके
नमस्ते
नमस्ते.
पिता इति पदं माता इति पदं पाति पाति इति वर्ब् इन् दट् फार्म् इट् फार्म्स् इसन्ट् इट् पाति माति पाति तत्रतः पिता माति माता प्रथमतः सत्यं वाट् एवर् ऐ एम् स्पीकिङ्ग् इस् इट् करेक्ट् मै अण्डर्स्टाण्डिङ्ग् पाति द्वारा पिता इन् देट् केस् निजन्तं फार् दीस् वर्ड्स् निजन्तम् इस् पातयति मातयति इस् देट् करेक्ट् इन् देट् केस् पातयितृ मातयितृ वेन् इट् कम्स् then it becomes like karta shabdam.
See, if you add prispratya to pa dhatu pa rakshane so it becomes patra
patra
patra iti rupam bhavati
patra rupam bhavati ava tatra tatra klesha hane patayita nijitam nijapa patayita patayitarau tatra patra shabdavati आगच्छति पितरौ 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 सपरेट् पितरौ भ्रातरौ सपरेट् बट् पातयति मातयति निजन्तात् यत् दृश्यते निजन्तात् उद्भवं पदङ्ग पद पद फार् देम् शब्द इस् लैक् दट् आफ् कर्ता
करेक्ट् करेक्ट् सो एनी शब्द इफ् देयर् इस् त्रिचातुन् प्रत्यय then it is
kartavya for all nijantas which are produced from these excluded six things are there some more excluded only pitru bratru ri jamatru matru only
somewhere but these are the famous words others generally don't use therefore I didn't mention here there are some more words like that.
So can I say in case Nijantam is possible and Nijantam is formed, then they will also come under the category of Karta, like the general category.
Correct, correct. Because there is also Trishpratya only, no?
Uh-huh.
So the so, Prakriya is same.
So that Panini is specifying like that, the Nijanta operation comes, then the words are words come into being, they will again fall into the category of...
For Panini, whether it is Nijanta or without Nij, it is not different. Because, so Pa, if you take the example of, so I will take the both examples, Pa plus Tru, and you said Pa plus Nij plus Tru.
So,
Pa is original Dhatu plus Nij.
Nij.
Okay. So, for Panini, this is also Dhatu. Pa is a Dhatu, Pa plus Tru. And Nijanta is also a Dhatu, according to Panini. So, this is also another Dhatu, but it's a created Dhatu.
Created Dhatu.
So, here also the format is Dhatu plus Tru. And in this also the format is Dhatu plus Tru. So it is not different.
Okay.
For Panini, these both are same. This Dhatu plus Tru, Dhatu plus Tru. So you are adding fifth Pratyaya to a Dhatu. Therefore the same procedure is applicable, same Prakriya.
I am not able to visualize. Is there some other, just like Nijanta, some other addition created? Other form of created, due to which it will fall into the Karta category. Is there, right now it occurred to me, Nijanta, when I am putting it becomes like that. Is there some other
Pratyas, no? I mean, there are Sanadi Pratyas. There are 12 Pratyas by adding which we can derive new Dhatu. Sanadi Pratyas are there. So, Nij is one of them. There are 12 Pratyas. So, Nij is one of them. So we can add other pratyas also. For example, if I add san pratyaya to a dhatu, I will take the example of kri dhatu. So if I add san, it becomes chikirsha. Chikirsha is a created dhatu now. It's a generated one. Chikirsha. And chikirshitru.
Chikirshitru
is a tru ending word.
Okay.
So here dhatu plus san plus tru.
Okay. Now I get it.
Okay. Astu.
Dhanyavada.
Astu. Okay. Pathatu Nijanta Palayati. Palayati iti Nijanta Rupam. Kintu Palayitru is a trich ending form. Palayati is tinganta rupam, palayitri is trijanta rupam. Rikarasya sthane repaha, sutra sankhya. Rikarasya sthane repaha, sasa jusho ruhu, iti sutram, sankhya, padami. Sasa jusho ruhu. Anveshanartham. Sasa jusho ruhu 8266. Sasa jusho ruhu. By this sutra, ru replaces sakara. This then bir by sasajushoruhu bihi karvasamihu visarjaniyah. Is there idagama for trich? Yes, idagama is there. So idagama vishe bahu mahan vichara hasti, but idagama are applicable in trich pratyaya. But we have to consider whether it is a set dhatu, anit dhatu, etc. That we will explain later on. As you mentioned, idagamas are applicable to trich. Okay, astu. So pitre, pitrubhyam, pitrubhyaha, atra, So panchami ekavachanam shashti ekavachanam atra visheshah asti ur iti adesha bhavati iti likitam ataha pitru as ततः परम उभयोः ऋ पुनः अ ऋकार अकारयोः स्थाने उर् इति आदेशः सो किं भवति उर् भव इति आदेशस्य पितुर् पितुर् सु उर् रिप्लेसेस ऋ एंड अ दिस अकार एंड ऋकार सो पित उर् सु पितुर् सु ततः परं सूत्राणि वदामि प्रथमं प्रक्रियां दर्शयामि ततः परं सकारस्य लोपः पितुर् नौ दिस् रेफ गेट्स् विसर्ग पितुः ओके कर्तृशब्दस्यापि एवमेव कर्तुः कदृशशब्दस्य पितुः कर्तृशब्दस्य कर्तुः सूत्रम् अत्र मया न लिखितं सूत्रं वर्तते ऋत उत् ऋत उत् इति सूत्रं सङ्ख्या 616111111 ऋत उत् इति सूत्रम् अत्र सकारस्य लोपः सकारलोप तस्य सूत्रं रात् सस्य इति सूत्रम् रात् रेफात् रात् सस्य सकारस्य लोपः रात् सस्य सूत्रसङ्ख्या इस् 8 2 24 ओके रात् सस्य इत्यनेन ऋत उत् इत्यनेन उर् इति आदेशः एक्चुलि उ इति आदेशः बट् वेनेवर् आदेशः गोस् इन् द प्लेस् आफ़् ऋकार इट् गोस् वित् रेफ ओन्लि अतः उर् इति आदेशः देन् राक्षस्य सकारस्य लोपः पितुर् देन् रेफगस्य विसर्ग पितुः एवम् एवमेव उभयत्रापि पञ्चमी विभक्ति षष्ठी विभक्ति एकवचन उभयत्रापि एवमेव प्रक्रिया पितुः पञ्चमी एकवचनं पितुः षष्ठी एकवचनमपि पितुः देन् पितृभ्यां पितृभ्यां पितृ प्लस् भ्यस् पितृभ्यः पितृ प्लस् ओस् षष्ठी विभक्ति द्विवचन पितृ ओस् यण् सन्धिः विशेषः कोऽपि नास्ति पितृ ओस् ऋकारस्य स्थाने रेपः पितृ पितृ ओस् पित्रोः अस्तु पित्रोः सो पित्रोः देन् पितृ प्लस् नाम् अत्र नुट् आगमः भवति इति मया पूर्वमेव उक्तं ह्रस्वनद्यापो नुट् इति अतः पितृ नाम् then whenever there is naam pratyaya the previous letter gets dirgha this also I mentioned previously naami iti sutram atah dirghah so pitru naam and in this shabda there is rakara atah rakara asti chedapi nakarasya sthane nakara therefore it is pitru naam पितृ नाम किमर्थं नकारः अत्र ऋ अस्ति ऋकारः और् रेफ अथवा षकारः यः कोऽपि वर्णः अस्ति चेदपि णत्वं भवति अत्र ऋकारः अस्ति अतः णत्वं पितॄणाम् राक्षस्य विधिसूत्रमस्ति वा नियमसूत्रमस्ति खलु तथापि कार्यं करोति वा आम् नियमसूत्रं satyam niyama sutram eva kintu niyama niyamaha kasya niyamaha itte sanyogantasya lopaha itte sutrasya niyamaha kriyate niyama sutrasya api anvaya bhavati karyam bhavateva niyama sutram atra niyama sutrena eva karyam yatha repha tasyeva lopaha iti uchyate khulu sanyogantasya lopaha iti samanya sutram tasya niyamaha adra krutaha atha niyama sutrasya gata pravrutti maya ata viranam na kritam yatha sanyogantasya lopaha ityasya viranam kartavyam etasya viranam kartavyam atha na uktam अतः पितॄणाम् अग्रे ई सप्तमे विभक्तेः एकवचन प्रत्ययः अत्र मया ऐ मेंशन दिस नी प्रत्यये परे गुणः अस्ति अत्रापि गुणः प्रवर्तते अतः पितृ प्लस ई इदानीं गुणः अतः पितर ऋतारस्य स्थाने अर् सॉरी पितर प्लस ई अनयोः योजनं क्रियते पितरि एवमेव कर्तृशब्देपि कर्तरि पितरि कर्तरि अत्र गुणः प्रवर्तते सो सर्वनामस्थानप्रत्यये परे These are the five sarvanamasthana pratyas. Sarvanamasthana pratyaya pare, punah ee pratyaya pare, saptanishat tegavatana. Pratyaya pare guna hasti. Ni sarvanamasthana yoho, iti sutra. Then pitru plus os, pitroho, puravatu, yan. Pitru plus su, visheshaha, pitru su iti bhavati, tataf param, sakarasya sthane, shakaraha, murdhanya. So pitrushu that we studied the rule adesha pratyayoho pitrushu astu please explain pitru tru ru which vibhakti is this is it panchami shashti Piturs, I think, yeah. So, once again, I will explain this Panchami. So, someone asked to explain this. Pitru, us, then Rukara, then Akara. These two letters. Rukara hasti, Akara hasti. Anayoha sthane, this rikara and this akara. Dayoha sthane, ur iti adeshaha. So, here only pit, sorry, rikara asti, pit, ur, ur, su. So, ur replaces ru and a. So, pit, ur, su. So it becomes piturs. Piturs sakarasya lopaha rephasya visargaha pituhu. Okay. Kartum. Kartrushabdasya sattvame bhakti kim kartari. Same as pitru. Pitru, pitari, kartru, kartari, gunaha. Kartru, guna, kartar, kartar plasti, kartari. Sushu parivartanam is adesha pratyayoho. From kartrushu, pitrushu, adesha pratyayoho. Iti sutram. Sutra sankhya apekshita chet vishyami. Adesha Nimisham. Adesha Pratyayo 8359. Astu. Atra Parvathanathanji Krishna Vartate. Punah ekvaram hastam uddharatu Parvathanathanji.
Chikirshuho, aham chikirshuho, sa chikirshuho, linga bhedaha nasti tatra. Parantu chikirshitru patayati nijantam kartri, when I form the nijanta form, there chikirshatri, chikirshitru, the difference will be there. The Sri Lingam, in the case of chikirshuho, there is no linga bheda there. Aham chikirshuho.
That depends on the pratyaya. So but here we added the pratyaya chikirshuho, then there is no linga bheda. If we add trich pratyaya, then there is linga bheda. Because in if the stringe kartri, iti ikaranta hoti.
I was just wondering why that similar difference is not shown there, because it then ambiguity. Sanskrit normally we say is
similar.
No, aham chikirshu, sa chikirshu, everything is same then.
No, there are different rules, no? Because they are not ending with the same letter. Chikirshu ends with ukara and this ends with ritara.
That I am clear about it. But the greatness of Sanskrit language is there is a total clarity and there is no ambiguity. Whereas in the form of that, when I form that san pratyaya, the clarity comes there. Whereas without it, here it is not there.
It's which clarity? I didn't understand.
No, kartri. Clear it is there, but here it, the chikirshuhu, when I say, then there is no masculine, feminine, everything is chikirshuhu.
Okay. there are many such words where this stealing, sti pratyas are not applicable. Whether you consider it as ambiguity or whether if you consider, since it is ukaranta, there is some rule where the sti pratyas is not applicable. So it depends on how we explain. Since it is ukaranta, the sti pratyas are not applicable. So there is no, for me, there is no ambiguity because I know this ukaranta, there is this form is same. For pullinga and stilinga is same. But depending on other word, aham chikirshu. See, if you say ambiguity, then even in the word aham, there is ambiguity. How will you know aham? If I use aham, there is no gender difference, no, for aham. Why are you going to chikirshu?
Okay. I don't know why it occurred to me.
So aham is samanam asti, pullinga stilinga cha.
Samanam eva.
Okay, astu. Any anya prashna? Waiting. Someone has doubt. Yadi kasya prashna asti hastra vadhratu, yadi kopi prashna asti sabitan, kintu hastra kasya kudhirudha nasti. Astu, tarihi samayaha samap jataha. Either you have to raise your hand, I don't know, because I couldn't see the name also, waiting for name 500. So, I can see the message, I have doubt, but if you have doubt, please raise your hand, or type the question. Now I can see Vijayaji's hand. Namaste.
Prashna asti va? Vijaya. Namapi na shruyate.
Na shruyate, Vijayaji. Meenakshiji, prashna vartate va?
Yes, namaste.
Namaste.
Uttami bahuvachana pratyaya is not clear. Su pratyaya. Kitru su.
Okay, haan. So, kim na jnatam?
How that is formed, that is not clear.
Okay, so, see, pitru plus su. Atra, this sakara, sakarasya sthane, sakara bhavati. That is because of this repa. So, the rule is adesha pratyayoho. Adesha pratyayoho iti sutram. If there is ik letter, so rukara is in ik letter, ivurulu ik. And if sakara, sakaraha, pratyaya sakaraha, see the sutra says adesha and pratyaya, the two words are used in this sutra, adesha, pratyayoho. Edi pratyayasya sakaraha, ikvaranat paramasti. Tada tasya sakarasya sthane shakaraha bhavati.
Shakaraha bhavati.
Pratyasya sakaraha ikvaranat param.
Ikvaranat.
Rukaraha ta ikvaranaha tasmat param pratyaya sakaraha asti ataha tasya sthane shakaraha bhavati. Ataha pitrishu iti rupam.
Pitrishu.
Pitrishu iti rupam. Evameva rameshu ityatrapi rame ityasi ekara again ikvarneshu asti ekaraha ataha tatrapi shakaraha bhavati rameshu ramesu ityasi rameshu
rameshu
harishu hari ikaraha again ikvarna asti ataha tatrapi shakaraha bhavati harishu sarvatra eto ikvarna asti chet sarvatrapi evam rupam harishu Pitrishu, Rameshu, Tartrishu, ityo.
Dhaniwada.
Asta.
Dhaniwada.
Asta. Ramanujan.
Namaste, Mahodaya.
Namaste.
Trich and Trin, do they give the same Pratipadika?
Yes. Same Pratipadika, but the meaning is not same.
What is the difference in the meaning? Could you please explain?
Yeah. So, trichpratyaya is kartrartha. Kartrartha means, for example, yaha karoti saha karta. Yaha dadati saha data. Yaha, so kartrarthe. Yaha tam kriyam karoti saha tatra karta, data, athava vakta. Yaha vadati saha vakta. Ityam. This is a meaning of trichpratyaya.
Okay.
Kartrartha. Kintu, the trin pratyaya, there are three meanings. Tachila, tadharma, tatsadhu karishu. Iti asti. See. Tatashila. So, there are three meanings. You can see this sutra later. Tachila, tadharma, tatsadhu. The generally is, yaha, data nama dana meva yasya swabhavaha. Saha data bhavati. So the giving is a quality of a person. If giving itself is a quality, then he is data.
Okay.
This is the meaning of trin pratyaya.
So
how we so if there is no difference in the form, but because see here nakara and here chakara. Because of this, Sware Bheda Asti. If you see in Veda, then the we can easily differentiate Trinanta and Trichanta because of Swara. Because the Nakarantasya Swaraha Anyaha, Chakara Swaraha Anyaha.
Okay.
But in normal usage, we can't differentiate. These two pratyas.
Okay. And
Aksam Dushwa, Jatavyam Patra.
Are you saying it's a, I mean, it becomes an adjective kind of thing? Is that what it is, tren?
For example, means in the example you can't differentiate. Saha, the other one, karanaha data. If I say karanaha data, so it's adjective only, karanaha data. But here I'm saying the dana, swabhavaha.
Okay.
Danam, karanasya swabhavaha asti. Ataha, so I, this is the intended meaning of data.
Okay.
So specific meaning, in specific meaning I use this pratyaya here. Karanaha data.
Okay.
So this is the meaning of trin pratyaya. Okay. If it is just trin pratyaya, then yaha dadati saha data. Aham api data eva. Kintu tada trin pratyaya. Trin pratyaya se artha nasti. Dana mama svabhava nasti.
Oh.
Tada kevalam tada trin pratyaya.
Okay.
Kintu rupam drishtva jatum ashakyate. By just by seeing this form, you can't differentiate whether this is trin or trich. Depending on the context, we have to decide.
Okay.
So like that.
Okay.
But in Veda, you can easily differentiate because of this swara.
Okay.
Okay.
Dhanyavada. Thank you.
Namaste. Anya, oh, bhavaha sandhi. Vidya ji,
prashna asti va?
Na shruyate. Parvatanathan ji.
Punaha namaste. Karnaha data tatra trin pratyaya iti bhavan uktavan. Tavase tavadeva mahabalihi api mahabalihi data iti aham vadami.
So context artham tatra avalambya trinva trishva iti niranayaha. Iti dhanameva sabhavaha kasachana tada iti bhavan data iti vadati tada trin iti artha vaktum shakyate. Trin pratyaya artha vaktum shakyate.
When it comes to whether it is swabhava, we will come to know only from history. So only for historical personalities this is applicable.
Historically, if you know the person very well and swabhava is dana, then also you can use.
Now, amongst our normal laukika people whom we see today, even for them it is applicable provided I know.
If the speaker and the listener know the context, then it is applicable.
Okay. But the reader may not know then.
Yeah, so correct. Reader may not know. So if he knows, then only you can use.
Okay.
Other we can't use like this.
Okay. Thank you. Then you want
to Kartra Pitra Vatva. Okay. Bhavataha aham hastam drashtum na shaknami. That kasya kaha iti adami waiting for name 500 iti asti, but bhavat hastam atra aham drashtum na shaknami. Ataha okay. So kartra pitruvatva ityasya kaha arthaha samanam nasti iti uktam khalu arambhe. Kartra shabda pitru shabdaha samanaha nasti. Kartra shabdasya prakriya anya asti pitru shabdasya nama sarvanama sthana pratyaya pare. Especially in these five, among the five, except su, au, as, am, au. Atra rupam bhinnam asti. Kartra shabdasya rupam bhinnam, pitru shabdasya rupam bhinnam. Samana prakriya nasti. Astu, tarihi samapayamaha, samayaha jikkaha, jataha. Vakyakaram, Vararuchim, Bhashyakaram, Patanjalim, Paninyam, Sutrakaranja, Pranatosmi, Munitrayam.